एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। सर्वकारेण संघीय मन्त्रालयानां द्वाविंशतिं संख्यां न्यूनीकृत्य अष्टादश प्रापयितुं निर्णीतं वर्तते। मन्त्री परिषदः यस्तनोपवेशेन नेपाल सर्वकारस्य एतद् विक्रमवर्षीयां कार्यविभाजन नियमावलीं स्वीकृत्य मन्त्रालयानां संख्यां न्यूनीकर्तुं निर्णीतं वर्तते। प्रशासनिक सुधारं कर्तुं, मितव्ययितां विधातुं, अनावश्यक व्ययं न्यूनीकर्तुं अथ च कार्य सम्पादनम् अतिरिक्तं प्रभावकारी सहजं च विधातुं संघीय मन्त्रालयानां संख्या अष्टादश प्रापिता अस्ति इति प्रधानमन्त्रिणः संचारानुसन्धान विज्ञ दीपा दाहालः असूचयत्। दाहालस्य अनुसारेण सर्वकारेण अर्थ, गृह, परराष्ट्र, रक्षा, विधि न्याय, संसदीय विषय मन्त्रालयाः पूर्ववत् स्थापिताः वर्तन्ते। एवमेव उद्योग, वाणिज्य, पूर्ति, संस्कृति, पर्यटन, नागरिक उड्डयन, ऊर्जा, जलस्रोत, शिक्षण मन्त्रालयाश्च यथावत् स्थापिताः वर्तन्ते। एवमेव सर्वकारेण प्रविधये आविष्काराय च प्राथमिकतां प्रदाय वर्तमान शिक्षा विज्ञान प्रविधि मन्त्रालयात् विज्ञान प्रविधिं पृथक्कृत्य नूतन विज्ञान प्रविधि नव प्रवर्तन मन्त्रालय संघटितो वर्तते। मन्त्री परिषद ह्यस्तनोपवेशेन 79-2000 विक्रम वर्षीयं वैद्युत सुशासन आयोग संघटन संचालन सम्बद्धं संशोधनं स्वीकर्तुं निर्णीतमस्ति। उपवेशेन सर्वकारीय निवेशन व्यवस्थापन समितेः सदस्य पदे प्रतिनिधि सभायाः सदस्यं सुशील खड्का इत्यमुं, योगेश गौसन थकाली इत्यमुं च मनोनेतुं निर्णीतमस्ति इति संचार सूचना प्रविधि मन्त्री डाक्टर विक्रम तिमिल सिन्हा असूचयत्। उपवेशेन एतद् विक्रम वर्षीयान् भूमि सम्बद्धान् 21 संशोधन नियमान् स्वीकर्तुं निर्णीतमस्ति इति संचार मन्त्री डाक्टर तिमिल सिन्हा अज्ञापयत्। प्रतिनिधि सभायाः यस्तनोपवेशः प्रतिपक्षि दलानां विरोधस्य कारणेन स्थगितीकृतोऽस्ति। प्रधानमन्त्रिणः बालेन्द्र शाहस्य उपस्थितेः याचनां कृत्वा प्रतिपक्षि दलानां सांसदैः उपवेशे अवरोध सर्जनस्य पश्चात् ह्यः तृतीयवारम् आहूतः अपि उपवेशः सभामुखेन डोलप्रसाद अर्यालेन अद्य पूर्वाह्नस्य 11 उपवेशनत्वेन स्थगितीकृतोऽस्ति। सभामुखेन अर्यालेन वारद्वयं स्थगितीकृत्य पुनः संचालिते उपवेशे प्रतिपक्षि नाम सांसदैः प्रधानमन्त्रिणः शाहस्य उपस्थितेः याचनां कृत्वा पुनः अवरोध सर्जनस्य पश्चात् अद्य उपविश्यमाने उपवेशे प्रधानमन्त्रिणः बालेन्द्र शाहस्य उपस्थितिः भविष्यति, धारणाञ्च उपस्थापयिष्यति इति असूचयत्। तत्पूर्वम् उपवेशे प्रधानमन्त्रिणः शाहस्य पक्षतः अर्थमन्त्रिणा डाक्टर सोनी वाग्ले इत्यनेन सर्वकारस्य आगामिनः आर्थिक वर्षस्य कृते प्रस्तावितान् नीति कार्यक्रमानाधृत्य विमर्शनस्य प्रारम्भम् भवतु इति प्रस्तावः प्रस्तुतः आसीत्। अर्थमन्त्रिणा डाक्टर वाग्ले इत्यनेन प्रस्तावस्य प्रस्तुतेः अनुपदमेव प्रतिपक्षिदलानां सांसदैः प्रधानमन्त्रिणः शाहस्य उपस्थितिम् अभियाच्य अवरोधः प्रारब्ध आसीत्। अवरोधस्य मध्ये सभामुखात् समयम् अभियाच्य नेपाली कांग्रेस दलस्य संसदीय दलस्य नेता विष्णुराज आङदेम्बे, नेकपा एमाले दलस्य नेता पद्मा अर्यालः, नेपाली कम्युनिष्ट दलस्य प्रमुख सचेतक पदीयः युवराज दुलालः, राप्रपा दलस्य नेता ज्ञानबहादुर शाही, रासोपा दलस्य मुख्य सचेतक पदीयः कविन्द्र बुर्लाकोटी, श्रम संस्कृति दलस्य अध्यक्ष हर्क साम्पाङ्स पक्षे प्रतिपक्षे च धारणाम् उपस्थापयन्। तत्पूर्वं सभायां सभामुखेन अर्यालेन एमाले दलस्य संसदीय दलस्य नेत्रा रामबहादुर थापा विधेयेन मंगलवासरस्य उपवेशे प्रदत्ताम् अभिव्यक्तिं संसदः अभिलेखाद् अपसारयितुं निर्देशनं प्रदत्तमासीत्। प्रतिनिधिसभायाः अपरोपवेशः अद्य पूर्वाह्नस्य सपादैकादशवादने पुनर्वसति। राष्ट्रिय सभायां ह्यस्तन दिवसात् आगामिनः आर्थिक वर्षस्य कृते सर्वकारस्य नीति कार्यक्रमान् आधृत्य विमर्शनं प्रारब्धमस्ति। उपवेशे प्रधानमन्त्रिणः बालेन्द्र शाहस्य पक्षतः अर्थमन्त्री डाक्टर सोनी मवाग्रे राष्ट्रपतिना संघीय संसदः संयुक्त उपवेशे प्रस्तुतम् आगामिनः आर्थिक वर्षस्य कृते सर्वकारस्य नीति कार्यक्रमान् आधृत्य विमर्शनं विधीयतामिति निगद्य प्रस्तावं प्रस्तौत। उपवेशे आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमान् आधृत्य विहिते विमर्शने सहभागिनः सांसदः नीति कार्यक्रम हि नागरिकेषु आशायाः विश्वासस्य च संचारो विहितः नास्ति इति उक्तवन्तः। स्तनोपवेश विधायन व्यवस्थापन समिते सभापति कृष्ण बहादुर रोकाया एकाशीत्युत्तर द्विसहस्रतम विक्रम वर्षीयम अभौतिका सांस्कृतिक सम्पद संरक्षण सम्बद्धम विधायन व्यवस्थापन समिते प्रतिवेदनम सभा समक्षम प्रस्तोत। तत्पूर्व राष्ट्रिय सभाया स्तनोपवेश सांसद प्रधानमन्त्रिणा बालेन्द्र शाहेन सदनं प्रति सांसद उत्थापितान प्रश्नान् च प्रति उत्तरदायित्या कार्यं करणीयम् इत्यत्र सर्वकारस्य ध्यानाकर्षणं विहितवन्त। राष्ट्रियसभायाः अपरोपवेश अद्य एकादशवादने वसति। राष्ट्रपा दलस्य केन्द्रीय कार्य समितिः उपवेशेन प्रथमं महाधिवेशनम् आगामिनी आषाढमासे चितवन जनपदे आयोजयितुं निर्णीतमस्ति। दलसभापतिः रवि लामिछाने विदस्य अध्यक्षतायां ह्य उपविष्टेन केन्द्रीय कार्य समितिः उपवेशेन प्रथमं महाधिवेशनम् आगामिनः आषाढमासस्य सप्तम दिवसात् नवमं दिवसं यावत् आयोजयितुं निर्णीतमस्ति इति दलस्य संसदीय दलस्य नेता प्रकाश चन्द्र परियारः असूचयत्। राष्ट्रपा दलस्य स्थापना 79 द्विसहस्रतम वैक्रमाब्दस्य आषाढमासस्य सप्तमे दिवसे सम्भूता आसीत्। सर्वकारेण सर्वकारीय कर्मचारिणां राजनीतौ संलग्नतायां प्राप्तायां सत्यां सेवातः मुक्तिः सम्भविष्यति इति संसूचितं वर्तते। संघीय विषय सामान्य प्रशासन मन्त्रालयेन ह्य सूचनां प्रकाश्य सर्वकारीय कर्मचारिणः अनुशासन सम्बद्धाम् आचरण सम्बद्धां च व्यवस्थां पूर्णरूपेण परिपालयितुं निर्दिष्टः वर्तन्ते। सूचनायां नेपालस्य सर्वकारीय सेवाधिनियमस्य च अनुसारेण सर्वकारीय सेवया तटस्थतया निष्पक्षया उत्तरदायिन्या स भाव्यमिति उल्लिखितं वर्तते। सर्वोच्च न्यायालयेन सम्पद अनुसन्धान आयोगस्य विरूद्धे पञ्जीकृते याचिका निवेदने कारण प्रदर्शनादेश प्रदत्तोऽस्ति। न्यायाधीशस्य बालकृष्ण ढकालस्य एकल न्यायपीठेन ह्य कारण प्रदर्शनादेशं प्रदाय आगामिन ज्येष्ठ मासस्य षष्ठे दिवसे विमर्शनाय द्वौ एव पक्षौ आहूतौ स्तः।